श्री गणेशाय नमः। अस्य श्री राम रक्षा स्तोत्रम् मंत्रस्य बुधकौशिक ऋषिः श्री सीतारामचंद्रो देवता अनुष्टुप छंदः सीता शक्तिः श्रीमद्हनुमान कीलकं श्रीरामचंद्र प्रीत्यर्थे राम रक्षा स्तोत्र जपे विनियोगः अथ ध्यानम्। ध्यायेताजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानं नवकमलदलस्पधिर्नेत्रं प्रसन्नम्। वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् इति ध्यानम्। चरितं रघुनाथस्य शतकोटिप्रविस्तरम् एकैकम् अक्षरं पूसां महापातकनाशनम्। ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् सासितूणधनुर्बाण पाणिं नक्तं चराङ्कं स्वलीलया जगत्रातुं आविर्भूतमजं विभुं। रामरक्षां पठेत् प्राज्ञः पापग्नीं सर्वकामदां शिरो मे राघवः पातु भालं दशरथात्मजः। कौसल्येयो दृशौ पातु विश्वामित्र प्रियः श्रुति घ्राणं पातु मखत्राता मुखं सौमित्री वत्सलः। जिह्वां विद्यानिधिः पातु कंठं भरत वन्दितः स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेश कार्मुकः। करौ सीतापतिः पातु हृदयं जामदग्न्यजित् मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः। सुग्रीवेशः कटी पातु सक्थिनी हनुमत् प्रभुः ऊरु रघुत्तमः पातु रक्षः कुलविनाशकृत्। जानुनि सेतु कृत् पातु जङ्घे दशमुखान्तकः पादौ विभीषण श्रीदः पातु रामोऽखिलं वपुः। एतां रामबलोपेतां रक्षां यः सुकृती पठेत् सचिरायु सुखी पुत्री विजयी विनयी भवेत्। पाताल भूतल व्योम चारिणश्छंद चारिण न द्रष्टुमपि शक्तास्ते रक्षितुं रामनामभिः रामेति राम भद्रेति रामचंद्रेति वास्मरन् नरो न लिप्यते पापये भुक्तिं मुक्तिं च विन्दति जगज्जैत्रैकमन्त्रेण रामनामनाभिरक्षितं यः कण्ठे धारयेत् तस्य करस्थाः सर्वसिद्धयः वज्रपञ्जरनामेदमम् यो रामकवचं स्मरेत् अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् आदिष्टवान्यथा स्वप्ने राम रक्षामि मां हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः आरामः कल्पवृक्षाणां विरामः सकलापदां अभिरामस्त्रिलोकानां रामः श्रीमान् सनः प्रभुः तरुणो रूपसंपन्नो सुकुमारो महाबलो पुण्डरीकविशालाक्षो चीरकृष्णाजिनाम्बरो फलमूलाशिनो भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मतां रक्षः कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ आतस्सच्च धनुषा विशुस्पृशाव अक्षयाशुगनिषङ्गसङ्गिनौ रक्षणाय मम राम लक्ष्मणाव अग्रतः पथि सदैव गच्छताम् सन्नद्ध कवचे खड्गे चापबाणधरो युवा गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः रामो दाशरथिः शूरो लक्ष्मणानुचरो कुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः जानकी वल्लभः श्रीमान् इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः। रामं दुर्वादलश्यामं पद्माक्षं पीतवाससं स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नराः। रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शांतमूर्ति वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिं। रामाय रामभद्राय रामचंद्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः। श्री राम राम रघुनंदन राम राम श्री राम राम भरताग्रज राम राम श्री राम राम रणकर्कश राम राम श्री राम राम शरणं भव राम राम श्री राम चंद्र चरणौ मनसा स्मरामि श्री राम चंद्र चरणौ वचौ सागृणामि श्री राम चंद्र चरणौ शिरसा नमामि श्री राम चंद्र चरणौ शरणं प्रपद्ये माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः सर्वस्वं मे रामचंद्रो दयालुः नान्यं जाने नैव जाने न जाने। दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्। लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये। मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये। कूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविता शाखां वंदे वाल्मीकि कोकिलम्। आपदामपहर्तारं दातारं सर्वसंपदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्। भर्जनं भवबीजानामार्जनं सुखसंपदां तर्जनं यमदूतानां राम रामेति गर्जनं। रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचर चमु रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्। रामे चित्तनयः सदा भवतु मे भो राम मामुद्धराः। राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने। इति श्री बुधकौशिक विरचितं श्रीराम रक्षास्तोत्रं संपूर्णम्। श्री सीता रामचंद्रार्पणमस्तु।